Podcast is now starting. All attendees are in listen-only mode.
నమస్తే, సుప్రభాతం. ప్రారంభం కుర్మః. వాక్యకారం వరరుచిం, భాష్యకారం పతంజలిం, పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. పాఠ యది ప్రశ్నా సంతి అత్ర చాట్ మధ్యే యోజయంతు. యది పాఠకాలే న శక్యతే చేత్ అహం తస్య ప్రశ్నస్య ఉత్తరం గ్రూప్ మధ్యే యోజయామి. అతః యః కోపి ప్రశ్నః భవతు చాట్ మధ్యే యోజయితుం శక్నువంతి. ఇఫ్ యు హావ్ ఎనీ క్వశ్చన్ యు కెన్ యాడ్ ఇన్ ద చాట్. If it is not possible to answer during the class, so I will answer in the group to that question. So anyone can ask questions in the chat. Any question you can ask, later I will answer. If it's possible, I will answer during the class, or I will answer in the Google group. Astu. ఏతావతా వ్యాకరణశాస్త్రస్య పరంపరాయాః విషయే జ్ఞాతం. వర్ణాః అష్టాధ్యాయాః విషయాః. ఏతే విషయాః అస్మాభిః దృష్టాః. సంజ్ఞానాం విషయే వక్తుం ఆరబ్ధం గత పాఠే. తద్విషయే ఏవ కించిత్ విస్తరేణ పశ్యామః. అష్టాధ్యాయాం బహ్వ్యః సంజ్ఞాః వర్తంతే. ఏకనవతిః 91 సంజ్ఞాస్. అత్ర వయం ఏతాః సంజ్ఞాః పఠామః. సో అంగం అవసానం ఆదేశః ఆగమః లోపః ఇత్ ప్రత్యాహారః ఉపధ ఉపసర్గః గుణః టి సంయోగః లఘు గురు వృద్ధిః సంప్రసారణం సంహిత. ఏతాసాం సంజ్ఞానాం విషయే అత్ర పఠామః. సంజ్ఞానామకా ఇది పూర్వముక్తం. యయా సంక్షేపేణ జ్ఞాయతే సా సంజ్ఞా. సంజ్ఞయా వ్యవహారః సులభతయా శీఘ్రతయా భవతి. సంజ్ఞయా యద్ నిర్దిశ్యతే తత్ సంజ్ఞి. ఇదం సర్వం పూర్వస్మిన్ పాఠే అపి ఉక్తం. సో సంజ్ఞా సంజ్ఞి. సంజ్ఞయా యత్ జ్ఞాయతే తత్ సంజ్ఞి. ద సంజ్ఞ టు విచ్ ద సంజ్ఞా రెఫర్స్, దట్ ఈస్ సంజ్ఞి. అత్ర ఆమ్రం ఇది సంజ్ఞా, ఫలం సంజ్ఞి భవతి. యది కశ్చన బాలకస్య నామ మహేశః ఇతి అస్తి, మహేశః ఇతి సంజ్ఞా, సః బాలకః సంజ్ఞి. ఏం సంజ్ఞా సంజ్ఞి ఇతి వ్యవహారః. స్క్రీన్ నదృశ్యతే వా? సో ఐ సా సమ్ మెసేజెస్, వి కాంట్ సీ ద స్క్రీన్, ఇస్ ఇట్ సో? ओके Now, is it okay? Okay, that's it. Yeah. Idam purasmin pathe, I mentioned all this in the previous class also. So, samjna samjni. So, amram iti samjna phalam samjni. Yam samjnaya yat nirdishyate, tat samjni iti gathyate. एकैकस्याः संज्ञायाः अर्थं जानीमः अङ्गम् अङ्गम् इति काचित् संज्ञा संज्ञायाः प्रयोजनं कुत्र इति अग्रे अध्ययनकाले ज्ञायते अतः संज्ञायाः प्रयोजनं किम् इति अत्र न उच्यते संज्ञा अङ्गम् इति पदम् इति व्याकरण अध्ययनकाले दृष्टं तर्हि कः अर्थः इत्येव अत्र वदामि अङ्गम् इति संज्ञायाः कः अर्थः सो प्रत्यये परे पूर्वं विद्यमानं प्रायः अङ्गम् इति कथ्यते सूत्रस्य विवरणं न करोमि सर्वत्रापि संज्ञाविधायकानि सूत्राणि सन्ति देर् आर् रूल्स् सो टु डिफैन् वाट् इस् अङ्ग वाट् इस् वृद्धि बट् ऐ एम् नाट् एक्स्प्लेनिङ्ग् द रूल् इट् सेल्फ् बट् ऐ हव् रिटन् हियर् इफ् एनि वन् वाण्ट्स् टु नो वाट् इस् देर् इन् दट् रूल् दे केन् रीड् लेटर् आन् बट् ऐ विल् गिव् यू जनरल् ऐडिया what is anga what is vritti what is guna like that so pratyaye pare purvam vidyamanam prayah angam iti gachchate yada kasyana pratyayah pare bhavati purvam vidyamanah bhagah angam iti padena vyavahriyate when a pratyaya follows the previous part is called anga for example ti iti pratyayah ति प्रत्यये परे पठ इति अङ्गम् ति इति कश्चन प्रत्ययः तस्मिन् परे पठ इति अङ्गम् राम अम् अम् इति कश्चन प्रत्ययः तस्मिन् परे राम इत्यङ्गम् पठति इत्यत्र पठ अति अ इति कश्चन प्रत्ययः तस्मिन् परे पठ इति अङ्गम् पठ अति इत्यत्र अ इत्यपि प्रत्ययः ति इत्यपि कश्चन प्रत्ययः प्रत्ययद्वयमस्ति पठ अति ति इस् आल्सो प्रत्यय अण्ड् अ इस् आल्सो प्रत्यय सो ति प्रत्ययदृष्ट्या पठ अ इति अङ्गम् इफ् यु टेक् इफ् यु कन्सिडर् फ्रम् ति देन् पठ अ इति अङ्गम् यदि अप्रत्ययम् अवलम्ब्य वदति तदा पठ इति अङ्गम् यतः अ इत्यपि प्रत्ययः एव ति इति अपि प्रत्ययः एव अतः अङ्गं परिवर्तते कं प्रत्ययम् अवलम्ब्य अङ्गसंज्ञा उच्यमाना अस्ति इति प्रधानं ति प्रत्ययमवलम्ब्य चेत् पठ अ इति अङ्गम् अप्रत्ययमवलम्ब्य तत्रैव उच्यते चेत् पठ इति अङ्गम् एवं प्रत्यये परे पूर्वः भागः अङ्गम् इति कथ्यते लिख अति इति किञ्चित् उदाहरणमस्ति अत्र ति प्रत्ययदृष्ट्या किम् अङ्गं भवितुमर्हति अत्र उत्तरं लिखितुं शक्नुवन्ति सो यु केन् आन्सर् एनिवन् केन् रैट् द आन्सर् लिख अति किम् अङ्गं ति प्रत्ययदृष्ट्या इफ् यु कन्सिडर् ति एस् अ प्रत्यय देन् वाट् इस् अङ्ग बहवः लिखितवन्तः रविप्रकाशजी लिख इति अङ्गं सम्यक् सो लिख प्लस् अ केचन सम् रोट् ओन्लि लिख् बट् लिख् इस् नाट् अङ्ग इफ् यु टेक् ति एस् अ प्रत्यय देन् लिख् प्लस् अ इस् अङ्ग यस् इन्दिराजी आल्सो रोट् लिख् एण्ड् अ एण्ड् मेनि आर् यस् सो लिख् प्लस् अ इस् अङ्ग इफ् यु टेक् ti as a pratyaya. Rama ina atra kim angam ina iti pratyaya. So what is anga here? Yes, jaganji. Yes, Rama. Rama iti angam. Yes, Balasubramanyam. Yes, Shakti Priya Rameshji Ushaji Jagan. Yes, bahavah likhitavantah samyak. So Rama iti angam. Ram plus a iti, no, it's not needed. Rama, because Rama is anga, only Rama plus ina is there. So eda ina iti pratyaya, tada Rama iti angam. Ram Lata plus Su. Su iti kachana pratyaya. Atra kim angam? Yes, Lata iti angam. Jaganji, Ram Prasad, Shakti Priyaji, Bhavaha likhitavanta. Yes. Samyak. So Lata iti angam. Su pratyaya pare Lata iti angam. Vad ti atra a pratyaya drishtya. So there are two pratyas, a and ti. If you consider, if you take a pratyaya, then what is anga? Yes, vad iti angam. Samyak. Bahavah uttaram likhitavantah. Yeah, many wrote correct answer. Yes, vad is anga. And ji sya ti, again there are two pratyas, sya and ti. If you consider sya, then what is anga? Yes, ji. Panduranga Mahodaya. Yes, he wrote first. And yes, ji is the anga. And another example. Tana plus u plus ti. If you can, u is also pratyaya and ti is also pratyaya. But if you take ti, then what is anga? Considering from, yeah, if you take ti, then what is anga? Yeah. Samitinam. Bahavah likhitavantah. Tanu, tan plus u. So tanu is anga. So samyak. Evancha pratyaye pare purvam vidyamana bhagah angam iti kathyate. Prayah idanim spashtata asti iti bhati. So there can be many pratyas, but while saying anga, it depends on considering which pratyaya you are saying anga. So tanu uti iti ti pratyam sikvaromi tanu iti angam. Jadi u pratyam avalambya vadami tan iti angam. Atah angam ekasminneva udaharane angam annyat bhavitum arhati. Yes. Avasanam varnanam abhavaha avasanam iti kathyate. Varnanam abhavaha avasanam iti kathyate. Udaharanartham Ramaha tatra. Asmin udaharane visargat param varnanam abhavahasti. So after visarga there is no letter. Then ta is there. So there is a gap between ta and visarga. So that gap is called avasana. Varnanam abhavah. Visarganantaram varnanam abhavah vartate. Saha abhavah eva avasanam iti kathyate. Kintu, but in the example Ramastatra, there is no avasana before ta. There is a sa. So there is no gap. So varnanam abhavah nasti. Takarat purvam sakarahasti. So in the example Ramah tatra, there is avasana. But in the example Ramastatra, avasanam nasti. Ataha varnanam abhavah avasanam. Gacchati Ramaha ityatra gacchati adhikarat param avasanamasti. Ramaha ityatra visargat param avasanamasti. Maheshaha atrapi visargat param avasanamasti. Evam varnanam abhavah avasanam. There is no avasanam after gacchati. there is avasanam after ti avasanam asti because varnanam abhava is avasana if there is no letter then it is avasana so after gacchati ramah so after gacchati there is absence of letter so therefore it is there is avasana but in ramas tatra after before takara there is no absence of letter there is a sa so there is no avasana okay ఆదేశః శత్రువత్ ఆదేశః ఇదం సూత్రం న ఇస్ నాట్ పాణినియన్ రూల్ కింతు ఆదేశస్య అవగమనార్థం ఇదం వాక్యం ప్రయోజ్యతే శత్రువత్ నామ శత్రుః ఇవ ఆదేశః శత్రుః ఇవ శత్రుః కిం కరోతి శత్రుః అన్యస్య ప్రదేశం ఆక్రమ్య తిష్ఠతి శత్రుః అన్యస్య ప్రదేశం ఆక్రమ్య తిష్ఠతి తద్వత్ ఆదేశః సో ఆదేశ రిప్లేసెస్ సంథింగ్ ఎల్స్ లైక్ శత్రు ఆదేశ రిప్లేసెస్ సంథింగ్ ఎల్స్ ఫర్ ఎగ్జాంపుల్ ఇతి ప్లస్ అత్ర అస్మిన్ ఉదాహరణే ఇకారస్య స్థానే యకారః భవతి ఇత్యత్ర ఇతి రూపం హియర్ య ఇస్ ఆదేశ బికాస్ ఇట్ ఇస్ రిప్లేసింగ్ ఇ సో విచ్ రిప్లేసెస్ సంథింగ్ ఎల్స్ దట్ ఈస్ కాల్డ్ ఆదేశ స్థా తిష్ఠతి ఇతి రూపం భవతి స్థా ఇతి కశ్చన ధాతుః తిష్ఠతి ఇతి రూపం అత తిష్ఠ ఇతి స్థా ఇత్యస్య స్థానే భవతి సో తిష్ఠ రిప్లేస్ స్థా దెర్ఫోర్ తిష్ఠ ఇతి ఆదేశః ఏవం యః అన్యస్య స్థానే భవతి సః ఆదేశః ఇతి అపి ఇత్యపి అత్ర య రిప్లేసెస్ ఇ అతః యకారః ఆదేశః ప్రతి ఉవాచ అత్ర కః ఆదేశః సో యు కెన్ రైట్ ద ఆన్సర్ ప్రతి ఉవాచ ప్రత్యు ఉవాచ ఇతి భవతి సో కః ఆదేశః యా మెనీ రోట్ య సో ఓన్లీ హియర్ యు ఇస్ ద ఆదేశ యు నాట్ ఈవెన్ య because you is replacing e and tu it is there so only you is the adesha so ya itasya api you only ya means you is the adesha pa ati piba ati iti rupam bhavati atra kaha adeshah ha samyak పిబ ఎస్ శ్రీనివాస్ జి యా శక్తి ప్రియాజీ యా సో పిబ ఇస్ ఆదేశ యా సమ్ రోట్ ఓన్లీ బి సి పా ఇతి ఆసీత్ అండ్ పా ఇస్ రిప్లేస్డ్ విత్ పిబ సో యాక్చువల్లీ పు ఇస్ దేర్ బట్ ఇన్ ద సూత్ర వేర్ దిస్ పిబ ఇస్ సెడ్ ద పిబ ఇట్సెల్ఫ్ ఇస్ సెడ్ so the sutra says in the place of pa piba is the replacement therefore piba is adesha so piba completely replaces pa atah piba iti adesha piba ending with a piba iti adesha sarva ya sarva smai iti bhavati kaha adeshah ఎస్ స్మై ఎస్ బాలసుబ్రహ్మణ్యం మహోదయ ఎస్ శక్తిప్రియ జయంతిజీ ఎస్ స్మై ఇతి ఆదేశ బికాస్ స్మై రిప్లేసెస్ య అతః స్మై ఇతి ఆదేశ ఎస్ బహవః లిఖితవంతః సమ్యక్ విశ్వ ని విశ్వస్మిన్ ఇతి భవతి సో అత్ర కః ఆదేశ ఎస్ శక్తిప్రియజీ స్మిన్ య రామప్రసాద్ జీ య శ్రీనివాస్ జీ ఎస్ సమ్యక్ so because smin replaces ni atah smin iti adeshah rama plus ta rama plus ina atra इन इति आदेशः बिकॉज इन यस सम्यक् बहवल इन नॉट इन इन इति आदेशः यस कृष्णांगे कृष्णय अत्र कः आदेशः यस शक्तिप्रियजी यस इंदिराजी यस बहवः लिखितवन्तः सम्यक् य इति आदेशः सो एवं यः अन्यस्य स्थाने भवति सः आदेशः which replaces something else, some other letter or something else, that is adesha. Uttamam. Then agamaha. Mitravat agamaha. Mitram iva. Mitram nama friend. Mitram iva agamaha. Mitram kasyapi sthane na bhavati. Kintu kerajit saha bhavati. Mitram shatruhu iva na. शत्रुः अन्यस्य स्थाने भवति मित्रम् अन्येन सह भवति एवम् आगमः अपि कस्यापि स्थाने न भवति किन्तु केनचित् सह भवति आगमः नेवर् रिप्लेसस् समथिङ्ग् एल्स् इट् गोस् टुगेदर् उदाहरणार्थं गच्छति अत्र सु इति कश्चन वर्णः प्रविशति मध्ये गच्छति इति रूपं सिद्ध्यति अयं चु इति आगमः अयं कस्यापि स्थाने न भवति इट्स् नाट् रिप्लेसिङ्ग् एनी लेटर् बट् इट् इस् कमिङ्ग् बिफोर् छ सो देर्फोर् दिस् इस् आगम मित्रवत् आगमः गच्छति इति आसीत् इट् बिकम्स् गच्छति वद् इस् अ धातु and becomes vand the na goes in between va and the so it is not replacing anything this is called agama vandanam iti rupam bhavati guru vandanam ityadu vandanam so evam yaha anyena saha bhavati saha agamah so kutra bhavati agamasya vishe vistarena again we will know later on in detail about agamas but agamah nama ayam agamah nama yaha anyasya sthane na bhavati kintu kenachit saha bhavati saha agamah patan asti patan n asti atra kaha agamah न इति आगमः अस्ति इति तथैव अस्ति अस्ति इस् देर् ओन्ली न इस् आगम पठन् अस्ति पिबति देर् इस् अ क्वश्चन् बै शेखरजी वै इट् इस् नाट् पिबाति देर् इस् अ रूल् बिकास् आफ् दट् इट् बिकम्स् पिबति दो देर् इस् अ एण्ड् अ प्लस् अ शुड् बि आ बट् बिकास् आफ् सम् एक्सेप्शन् देर् इस् एक्सेप्शन् एण्ड् इट् becomes pibati tadvishe we will know that those rules later on but there is a rule for that okay pratyang atma pratyang ng atma atra kaha agamah yes kamala rajan ji yes yes So, bahava likhitavanta. So, ng is agama here. Gacchati, gacchati. Atra kaha agama? Yes. Yeah. So, chu is agama. Only chu. Chu iti agama. Samyak. Vari-i, vari-in-i. Iti bhavati. Atra kaha agama? Yes. न शशिजि यस् सम्यक् न इस् आगम न इति आगमः सम्यक् वृक्षच्छाया वृक्षच्छाया अत्र कः आगमः यस् शक्तिप्रियाजि चु यस् इन्दिराजि य नारायणजि य चु चु इति आगमः सम्यक् सुगण् ईशः सुगण ईशः अत कः आगमः यस नारायणजी इंदिराजी यस न या न न इति आगमः सम्यक् वद स्यति वद इष्यति अत कः आगमः यस नारायणजी या शक्तिप्रियजी यस शशिजी या इ इ इति आगमः सम्यक् शॉर्ट ह्रस्व इ नॉट दीर्घ वद इष्यति वदिष्यति इति रूपं भवति तत्परं सो इ इति आगमः एवं यः अन्यस्य स्थानेन भवति किन्तु अन्येन सह भवति सः आगमः इज देयर अ वे टू राइट हियर इन संस्कृत Yeah, so if you want to write in Sanskrit, you can use, there is a Pramukh keyboard. So you can download that. It's a free software. So you can download and you can write in Sanskrit. Their name is Pramukh. P-R-A. Pramukh. सो वदिष्यति श आदेश यस वदिष्यति बिकम्स वदिष्यति व्हेन इट चेंज टू श देन देयर इज आदेश बिकॉज द श इज रिप्लेसिंग स सो इन वदिष्यति श इज आदेश नाउ ओनली वदिष्यति इज देयर बट स चेंज टू श दैट इज बिकॉज ऑफ आदेश वद धातु देर इज वदति इज डिफरेंट एंड वंदते इज डिफरेंट सो टू धातु आर देर वदति देर आल्सो यू फाइंड वद एंड वंदते देर आल्सो यू विल फाइंड वद देन न बिकॉज ऑफ न आगम इट बिकम्स वंद वंदते सो दे आर टू डिफरेंट धातु फ्रॉम लोपः अदर्शनम् लोपः अदर्शनम् नाम उच्चारणस्य अभावः दर्शनम् पश्यति दर्शनम् किन्तु अत्र दर्शनम् नाम उच्चारणस्य अभावः सो अब्सेंस ऑफ प्रोनन्सिएशन अब्सेंस ऑफ अटरेंस इज लोप एग्जांपल राजन् सु इति स्थिते अत्र सु तस्य उच्चारणं न भवति only for example in sambodhana will rupas will know later on he rama like if it is rajan shabda he rajan is the form in sambodhana vocative case it is he rajan so the actually there was a su but it disappeared means we are not pronouncing that is lopa uchcharana abhava is lopa in the end form we are not using that like that kta kta is a pratyaya but in the end form we are not using the ka and therefore ka isya lopah bhavati iti uchyate so uchcharana abhavah kakarasya lopah in a kta pratyaya ka gets lopa in rajan su gets lopa for example likhitam iti is a kta ending with kta likhita you can find ta तो इज ऑफ त प्रत्यय किंतु ककार नास्ति तत्र किमर्थं नास्ति तस्य लोपः भवति अतः तस्य उच्चारणं न क्रियते सु इति कश्चन प्रत्ययः अत्र कस्य लोपः भवति या यस इंदिराजी या उ इत्यस्य लोपः किमर्थं उ इत्यस्य उच्चारणं न क्रियते सो वी डोंट यूज यु उ इन द एंड फॉर्म सो देयरफॉर उ इत्यस्य लोपः इति उच्यते क्तवतु इज अ प्रत्यय क्तवतु एंड वी ओनली तवत् इज यूज्ड कस्य कस्य लोपः अस्ति अत्र क या ककारस्य यस गणेश जी या क एंड उ यस गिरिजा या यस यस रवि प्रकाश जी या बालसुब्रमण्यम जी या सो क एंड उ बोथ आर हैविंग लोप हियर ककारः द फर्स्ट क एंड लास्ट उ द्वयोः अपि लोपः भवति सन् इति कश्चन प्रत्ययः, अत्र कस्य लोपः? यस् न नारायण इति, यस् गिरिजाति, यस् शक्तिप्रियादि, यस् न यस् लोप. ल्युट् इति कश्चन प्रत्ययः, अत्र कस्य लोपः अस्ति? ल्युट् लु एण्ड् टु, यस् नारायणजि सम्यक्, शशिजि यस् यस्. टू लेटर्स् लु एण्ड् टु, द फस्ट् लु एण्ड् लास्ट् टु, बोत् आर् हेविङ्ग् लोप, द्वयोः अपि लोपः भवति. शत्रु इति कश्चन प्रत्ययः, कस्य लोपः? यस् नारायणजि, श एण्ड् ऋ, या शक्तिप्रियाजि, या बालसुब्रह्मण्यं जि, यस् शशिजि, यस् सम्यक्. सो शु द फस्ट् शु एण्ड् लास्ट् ऋ, द्वयोः अपि लोपः भवति. शानच् इति कश्चन प्रत्ययः, आन इति अवशिष्यते, कस्य लोपः? यस् नारायणजि, श एण्ड् च, यस् वेङ्कट वेङ्कटमण्जि, या शशिजि, यस् इन्दिराजि, या. सो शु एण्ड् टु, द फस्ट् शु एण्ड् लास्ट् टु, द्वयोः अपि लोपः भवति. जस् इति कश्चन प्रत्ययः, अत्र कस्य लोपः? यस् शशिजि, या रविप्रकाशजि, यस् इन्दिराजि, यस् सम्यक्. सो जु इत्यस्य लोपः, द जु गस् लोप, बिकास् अ इस् देर्, जस् अ इस् रिमैनिङ्ग्, ओन्ली जु गस् लोप. सम्यक्. एवं लोपः यस्य उच्चारणं न भवति, सो सः लोपः इति पदेन कथ्यते. लोपविधायकानि सूत्राणि बहूनि भवन्ति, देर् विल् बि मेनि रूल्स् टु से दिस् लेटर् गेट्स् लोप एण्ड् दिस् लेटर् वोण्ट् गेट् लोप, देर् आर् रूल्स्, बट् दिस् इस् वाट् लोप, अदर्स् उच्चारण अभावः एव लोपः. देन् इत् इत् इति काचित् संज्ञा, माहेश्वरसूत्रेषु देर् आर् सम् रूल्स् काल्ड् माहेश्वरसूत्र, केम् फ्रम् महेश्वर, महेश्वरात् आगतानि सूत्राणि, दोस् रूल्स् आर् काल्ड् माहेश्वरसूत्र, ऐ विल् शो दोस् रूल्स्. माहेश्वरसूत्रेषु ये अन्तिमवर्णाः, द लास्ट् लेटर्स् आफ् माहेश्वरसूत्र, दे गेट् इत् संज्ञा. फर् एक्साम्पल् अ इ उण् इति किञ्चित् सूत्रं, दिस् इस् अ रूल्, अ इ उण्, द लास्ट् लेटर् इस् न, तस्य किं भवति? इट् गेट्स् इत् संज्ञा, इत् इस् अ टर्म् संज्ञा. सो द लास्ट् लेटर् इस् काल्ड् इत् इन् अ इ उण्, न इस् इत्. ऋ लुक् इस् अनदर् रूल्, इन् ऋ लुक् क इस् इत्. सो द लास्ट् लेटर्स् आफ् माहेश्वरसूत्र आर् काल्ड् इत् इति संज्ञा, एतेषाम् इत् संज्ञा भवति. माहेश्वरसूत्रेषु ये अन्तिमवर्णाः तेषाम् इत् संज्ञा. माहेश्वरसूत्राणि कानि? दीस् आर् द माहेश्वरसूत्र, देर् आर् 14 सूत्रास्, यत्र सर्वे वर्णाः सन्ति, अ इ उण् ऋ लुक् ए ओं ऐ औच् हय वरट् लण् ञामाङानम् झ फञ् घष् जप गडदश् ख फ छ ठ छ चटतौ कपै ष सर् हल्. सो एतानि माहेश्वरसूत्राणि वर्तन्ते, माहेश्वरसूत्रात् महेश्वरात् आगतानि माहेश्वराणि सूत्राणि. सो लास्ट् लेटर्स् अन्तिमवर्णानाम् इत्संज्ञा अस्ति. ऐ वुन् रिलिक् ऐ शोड् द एक्साम्पल्. सो ए ओं इन् लोप एडिशन् टु हा ङ इन् एवं ङ इत्यस्य लोपः, सम्यक् नारायणजि, अग्रिजाजि, ङ इत्यस्य लोपः भवति. सो देर् इस् अ क्वश्चन्, इन् लोप इन् एडिशन् टु उच्चारण अभाव देर् इस् आल्सो दर्शनाभाव, बिकास् देर् इस् नो इन् रैटिङ्ग् दर्शनाभाव, बट् वैल् प्रोनौन्सिङ्ग् इट् इस् उच्चारणाभाव. सो एक्चुअल् इट् इस् उच्चारणाभाव, बट् सो इट् रिफ्लेक्ट्स् इन् रैटिङ्ग् आल्सो. देन् या अनन्तरम् ऐ औच् इति सूत्रं तस्य इत्थं नास्ति अत्र. यस् सम्यक् नारायणजी रवि शङ्करजी या गिरिजाजी या इन्दिराजी यस् जानकी राजारामजी यस् सो टु चकारस्य इत्थं नास्ति द लास्ट् लेटर् टु. देन् हयवरट् इति सूत्रं कस्य इत्थं न यस् सदाशिवं जी यस् नारायणजी या इन्दिराजी या सम्यक् सो टु हयवरट् टु टु इत्यस्य इत्थं न. लण् अत्र कस्य इत्थं न या न रविशी यस् यस् न्यमगणनम् अत्र कस्य इत्थं न यस् म या कमलाक्षीजी इन्दिराजी या सम्यक् सो म इत्यस्य इत्थं न. जभञ् कस्य इत्थं न यस् जनार्दनजी या सम्यक् शशिजी या न्यु न्य इत्यस्य इत्थं न यस् जभञ् घटश् अत्र कस्य इत्थं न यस् कामाक्षीजी यस् शक्तिप्रियाजी यस् यस् बालसुब्रह्मण्यंजी या सो षु इत्यस्य इत्थं न इट् इस् मूर्धन्यषकार. देन् जबगडदश् अत्र कस्य इत्थं न यस् रङ्गनाथ्जी यस् यस् सो तालव्यषकार हियर् दिस् तालव्य प्रीवियस् इट् वास् मूर्धन्य तालव्यषकारस्य इत्थं न. देन् खफ छठ छ चटतौ कस्य इत्थं न यस् यस् सम्यक् बहवः उक्तवन्तः या माणिगुडि यस् इन्दिराजी या सो व व इत्यस्य इत्थं न सम्यक्. देन् कपै अत्र कस्य इत्थं न कपै या सो माणिगुडि राव् यस् रविशङ्करजी कमलाक्षी कामाक्षी रामनारायणजी या सो यु हेस् इत्थं न. एण्ड् श सर् अत्र श सर् यस् जगञ्जी या मनि या बहवः सम्यक् सो रेफ यस् श सर् रेफस्य इच्छं न. हल् अत्र कस्य यस् यस् शक्तिप्रियजी या लु सम्यक् एवं माहेश्वरसूत्रेषु ये अन्तिमवर्णाः तेषाम् इत्थं न भवति. ततः परं प्रत्ययेषु प्रत्ययानां विषये पूर्वम् उक्तम् लिस्टेड् प्रीवियस्लि द टैप्स् आफ् प्रत्ययस् प्रत्ययेषु धातुषु धातूनां विषये अपि किञ्चित् उक्तं धातुषु आगमेषु आदेशेषु च विद्यमानम् अन्तिमं व्यञ्जनम् अन्तिमव्यञ्जनं कान्सनेण्ट् अन्तिमव्यञ्जनस्य इत्थं न भवति. प्रत्ययः धातुः आगमः आदेशः अत्र विद्यमान अन्तिमव्यञ्जनस्य लास्ट् कान्सनेण्ट् तस्य इत्थं न अस्ति. फार् एक्साम्पल् अण् इति कश्चन प्रत्ययः अन्तिमं व्यञ्जनमस्ति ण् तस्य इत्थं न भवति. सो इन् तिप् पु इस् द अन्तिमं व्यञ्जन तस्य इत्थं न भवति. किन्तु दिर् इस् एक्सेप्शन् किन्तु सुप्रत्ययेषु तिङ्प्रत्ययेषु च इन् सुप्रत्ययास् एण्ड् तिङ्प्रत्ययास् ये सवर्गसकारमकाराः सवर्ग दश दश न दिस् फैव् लेटर्स् एण्ड् सकारमकार सकारः मकारः तेषाम् इत्थं नास्ति एतेषाम् इत्थं न भवति. दिस् लेटर् दे वोण्ट् गेट् इत्थं इन् सुप्रत्यय अण्ड् तिङ्प्रत्यय ओन्लि सवर्ग सकार एण्ड् मकार सो दीस् लेटर्स् दे वोण्ट् गेट् इत्थं इन् सुप्रत्ययास् एण्ड् तिङ्प्रत्ययास्. एतेषु उदाहरणार्थं जस् इति कश्चन सुप्रत्ययः दिस् इस् वन् अमङ्ग् सुप्रत्ययास् अत्र सकारः अस्ति जस् अतः बिकास् इट् इस् अ प्रत्यय सकारस्य इत्थं भवेत् बट् इट् ईस् इन् सुप्रत्ययास् अतः सकारस्य इत्थं न भवति. सो इस् अ एक्सेप्शन् टु द प्रीवियस् वन्. भ्याम् इति कश्चन सुप्रत्ययः सुप्रत्यय एण्ड् इट् एण्ड्स् वित् म देर्फोर् म has no itsamnya makarasya itsamnya nasti. Des bhyam सो इन सुप्रत्ययेषु तिङ् प्रत्ययेषु च एतवर्ग सकार मकाराः तेषाम् इत्संज्ञा नास्ति. सर्वेषामपि सूत्राणि सन्ति, देर् आर् रूल्स् फार् एव्रिथिङ्ग्, बट् ऐ विल् एक्स्प्लेन् दीस् रूल्स् लेटर् आन्. सो ऐ हेव् रिटन् दोस् रूल्स्. हलन्त्यं न विभक्तौ तुस्माः. इफ् यु वाण्ट् टु नो वाट् इस् देर् यु केन् लेटर् आन् यु केन् रेफर् बिकास् नम्बर् इस् आल्सो गिवन् सूत्र नम्बर्. सो यु केन् रेफर् टु दोस् रूल्स् लेटर् आन्. इदानीं सो शप् इति कश्चन प्रत्ययः अस्ति. प्रत्ययेषु धातुषु आगमेषु आदेशेषु विद्यमानम् अन्तिमं व्यञ्जनम् इति उक्तवान्. सो इन् शप् प्रत्यय कस्य इत्संज्ञा भवति? यस् पु वेङ्कटरामन्जी. यस् यस् पु इत्यस्य इत्संज्ञा भवति. ह्यन् इति कश्चन प्रत्ययः, अत्र कस्य इत्संज्ञा? यस् जनार्दन्जी गिरिजाजी. यस् यस् सो अन्तिमं व्यञ्जनं न, अतः न इत्यस्य इत्संज्ञा. ह्नम् इति कश्चन प्रत्ययः, अत्र यस् जनार्दन्जी. य सदाशिवंजी वेङ्कट वेङ्कटमन्जी. य गिरिजाजी. यस् म, म इत्यस्य इत्संज्ञा. सम्यक्. सिप् इति कश्चन प्रत्ययः, अत्र कस्य इत्संज्ञा? यस् प. य सदाशिवंजी. य यस् प इत्यस्य इत्संज्ञा. सम्यक्. सिच् इति कश्चन प्रत्ययः, कस्य इत्संज्ञा अत्र? यस् च. या इन्दिराजी. या कमलराजन्जी. यस् बालसुब्रह्मण्यन्जी. या च इत्यस्य इत्संज्ञा. चङ् इति कश्चन प्रत्ययः, कस्य इत्संज्ञा? यस् शशिजी. या वसुदेवन्जी. या ङ इत्यस्य इत्संज्ञा. अङ् इति कश्चन प्रत्ययः, सो कस्य समानं? यस् इन्दिराजि. या शक्तिप्रियाजि. या वेङ्कटसुब्रह्मण्यजि. या ङ इत्यस्य इत्संज्ञा सेम् पूर्वं यथा तदेव. यक् इति कश्चन प्रत्ययः, कस्य इत्संज्ञा अत्र? यस् गिरिजाजि. या क इत्यस्य इत्संज्ञा. या या बसवराजुजि. या सम्यक्. शानच् प्रत्ययः, कस्य इत्संज्ञा भवति? यस् च. या यस् या बहवः लिखितवन्तः. सम्यक्. सो शानच् शायच् सेम्, अत्रापि चकारस्य एव. तव्यत् अत्र तव्यत् कस्य इत्संज्ञा हियर्? यस् जगन्जि. या शशिजि. यस् या यस् यस् या सो तु इत्यस्य इत्संज्ञा. अच् इति कश्चन प्रत्ययः, कस्य इत्संज्ञा? अच् यस् यस् शशिजि शक्तिप्रियाजि. या इन्दिराजि. यस् यस् अप् इति कश्चन प्रत्ययः, यस् इन्दिराजि. या वेङ्कटरमन्जि. या जगन्जि. या यस् पु इत्यस्य इत्संज्ञा. स्पिन् इति कश्चन प्रत्ययः, कस्य इत्संज्ञा? यस् उषाजि. यस् सो सम्यक् उत्तमं. या न इत्यस्य इत्संज्ञा. एवं प्रत्ययेषु धातुषु आगमेषु आदेशेषु च यत् अन्तिमं व्यञ्जनं तस्य इत्संज्ञा भवति. अपवादः उक्तः, सेड् एक्सेप्शन् आल्सो. सो सुप्रत्ययेषु तिङ् प्रत्ययेषु च एतवर्गसकारमकाराः तेषाम् इत्संज्ञा नास्ति. अत्र सुप्रत्ययाः सन्ति, सु औजस् अम् औषस्. सो 21 सुप्रत्ययास्. सुप्रत्यये कस्यापि इत्संज्ञा अस्ति वा? इत्संज्ञा बिकास् अन्तिमं व्यञ्जनं देर् शुड् बि कान्सनेण्ट् अस्ति चेत् यस् इति लिखन्तु, नो चेत् नो इति. सो सुप्रत्यये इत्संज्ञा नास्ति सद्यः. सो सद्यः नास्ति बिकास् देर् आर् सम् रूल्स् देन् ऊ गेट्स् इत्संज्ञा, बट् ऐ डिडन्ट् मेन्शन् येट्. सो नौ नो लेटर् हेस् इत्संज्ञा. यस् सो वि पास्. यस् जगन्जि पास्. सो औ इत्संज्ञा अस्ति वा कस्यापि? न. यस् यस् रविशङ्कर् इति गिरिजा. या सो नास्ति कस्यापि इत्संज्ञा नास्ति. जस् हे सकार सकारस्य इत्संज्ञा अस्ति वा नास्ति वा? वेदर सो हेज़ इत्संज्ञा नो? यस वी शंकर जी इंदिरा जी नो यस शशि जी रोट अस्ति बट नो बिकॉज ऑफ दिस एक्सेप्शन इन सुप्रत्ययास एंड तिंग प्रत्ययास सवर्ग सकार मकार एतेषां इत्संज्ञा नास्ति बिकॉज इट इज सकार एंड ऑल दिस आर सुप्रत्ययास ओनली सकार इति कारणात् इत्संज्ञा नास्ति बिकॉज इट इज सकार इत्संज्ञा नास्ति अम् इति कश्चन प्रत्ययः मकारस्य इत्संज्ञा अस्ति वा नास्ति वा नो जगन्जी यस् नो या शक्तिप्रियाजी उषाजी यस् नो नो सम्यक् नास्ति सम्यक् बिकास् इट् इस् मकार मकारस्य सुप्रत्यये मकारस्य इत्संज्ञा नास्ति यस् वसुदेवन्जी या सम्यक् औट् इति कश्चन प्रत्ययः तकारस्य इत्संज्ञा नास्ति वा अस्ति वा अस्ति यस् इति लिखन्तु यस् यस् गिरिजाजी श्रीनिवासजी शशिजी जगन्जी यस् wrote no takara sitsamya asti because it is not in in tavarga or sakara or makara therefore to has sitsamya yeah there is no sakara or makara or tavarga therefore to has sitsamya because it is the last consonant it has sitsamya only atra sakara tavarga sakara makara na mitsamya nasti अन्येषाम् इत्संज्ञा अस्ति एव फर्दर् लेटर्स् इत्संज्ञा इस् देर् शस् इस् अ प्रत्यय सकार इत्संज्ञा अस्ति वा नास्ति वा नो यस् वेङ्कट रमन्जी गिरिजाजी यस् रामप्रसाद्जी इन्दिराजी यस् सम्यक् सकारस्य इत्संज्ञा नास्ति सम्यक् टा इति प्रत्ययः अत्र अन्तिमं व्यञ्जनं किमपि नास्ति सम्यक् so there is no last consonant because it ends with a atah sadhya kasya api samnya nasti by the previous rules no samnya kriyata na bhyam bhyam ityatra kasya samnya asti va nasti va na yes samyak it samnya nasti yeah bhis pratyaya sakara se samnya asti va nasti va nasti yes indiraji daganji sam So has no itsanya. Some wrote yes. No. Sakara because it is in tavarga sakara makara. Etesham itsanya nasti. Nge. Atra kasya kastiva. It's not ending with consonant. Because it ends with a. Yeah, samek. Nasti. By previously mentioned rules, no. There are some other rules that I will explain later on. Then bhyam. Atra? No. Yes. Samyak, Ravish, Venkat Ramanji, yeah. Indiraji, Bhavani ji, yes, samyak. Bhyam madhyepi nasti, Sashi ji, yes, samyak. Nasti, samyak. Bhyas? Yeah. Samyak, no, 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 repeated, yeah. And ngasi? Yeah, nasti because it is not ending with consonant. It ends with e, so no. Again, bhyam repeated. Bhyas again repeated. ngas pratyaya ngas pratyaya sakarasya asti va no samyak indiraji yes venkatramanji girijaji yes nasti sakarasya nasti os iti kasya pratyaya atra sakarasya no yes samyak atra api nasti yes sachi samyak am iti kasya pratyaya yes taganji samyak yeah nasti ni atra is not ending with consonant so nasti Again, O is repeated. And sup. Suprate. Pakarasi asti va nasti va. Asti. Yes. Girijaji. Yes. Kamara Shashiji. Yes. Yes. So, pu has itsamnya. Because it is not in tavarga sakara makara. Ataha, pakarasi itsamnya asti. So, all supratyas are here. Like this in ting pratyaya also. Supratyesu ting pratyayesu. Tavarga sakara makara naam itsamnya nasti. Should it sakara or shakara? Where in supratyaya? I think, yeah. In supratyaya, in pratyaya it is sa. Later on it changes to sha. Rameshu. It becomes sha. But because of some other rule, the sa changes to sha. But kintu, vastuta pratyaya it is sa only. Pratyaya sakara hai va. देन प्रत्ययेषु धातुषु आगमेषु आदेशेषु विद्यमानः स्वरः स्वरस्यापि इत्संज्ञा भवति स्वरः ववेल् स्वरवर्णस्यापि इत्संज्ञा भवति फार् एक्साम्पल् इन् सुप्रत्यय स्वादप्रत्यय सु द फस्ट् वन् सु इत्यत्र उकार हेज़् इत्संज्ञा ओन्लि स रिमैन्स् स इति एव अवशिष्यते उकारस्य इत्संज्ञा अस्ति एवं ngasi इस् आल्सो सुप्रत्यय वि सा इन् द प्रीवियस् लिस्ट् ngasi इन् ngasi प्रत्यय इकारस्य इत्संज्ञा अस्ति ओन्लि ngas रिमैन्स् ngas इत्येव अवशिष्यते सो स्वरस्यापि इत्संज्ञा अस्ति बट् नाट् एव्रिवे सो इट् हेज़् मेनि एक्सेप्शन्स् आल्सो सो देट् विल् नो वैल् स्टडिङ्ग् सो नाट् एव्रिवे देन् प्रत्ययस्यादौ विद्यमानः चवर्गः टवर्गः कवर्गः चकारः लकार यस् सम्वन् शिशिजि आस्क्ड् अत्र अनुनासिकः वर्णः खलु इन् सु इस् देर् अनुनासिक यस् एक्चुलि इट् इस् अनुनासिक बट् नौ वि विल् नो वेदर् इट् इस् अनुनासिक आर् नाट् बै कामेण्ट्रि ओन्लि बिकास् नौ द ट्रेडिशन् इस् नाट् देर् एक्चुलि वैल् यदा पाणिनिः उक्तवान् पूर्वं देन् हि प्रनौन्स्ड् सम् ववल्स् एस् अनुनासिक एण्ड् सम् एस् निरनुनासिक बट् नौ देट् सच् प्रोनौन्सियेशन् इस् नाट् देर् सो वि नेवर् प्रनौन्स् अष्टाध्यायी इन् देट् मेनर् so we can't get whether it is anunasika or not so just with commentaries we have to decide whether it has itsamya or not so prashna samek shishi ji yeah ha pratyasyado vidyamana chavarga tavarga kavarga shakara lakara so the chavarga tavarga cha group cha 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 nya ta ta da tha na and ka ka kha ga kha nga chakara and lakara etesham itsamya asti pratyayasya adu in nul pratyaya lugas itsamya that is by previous rule that we saw previously and nu also has itsamya that is because of this so pratyayasya adu if pratyaya begins with chavarga tavarga or chavarga tavarga kavarga chakara lakara then those letters have itsamya and it has an exception taddhita pratyaya there are seven types of pratyayas and in taddhita pratyayasya adau vidyamananam kavarga shakara lakaranam itsamya nasti taddhita pratyaya it begins with kavarga shakara and lakara so these letters they don't have itsamya shakara kavarga for example in gmin is a pratyaya N has itsamya with previous rule and it begins with ga. Ga is in kavarga. Gakarasya itsamya nasti because gmin is a taddhita pratyaya. In taddhita pratyaya kavarga shakara lakarana itsamya nasti. Anyatra asti. In other pratyayas it is there. But in taddhita pratyaya it is not there. So it is the exception. Rules are written here. Chutu lashaku ataddhite. Rule itself it is there. Ataddhite. Yeah. So, yeah. Just. Now, atra kasya itsamya asti. Sakarasya asti. That sakarasya nasti. Because it is a supratyaya. Sakara no itsamya. And now, apply the previous rule. Pratyasya adu vidyamana chavarga tavarga kavarga. Sakara lakara. Eta ishamishaya. So, which letter has itsamya here? Yes. Ja, Girijaji, Samyak. Yeah. Janaki Rajaramji, yes, yes. So, ja, the jakarasya itsamya asti. Jayanti ji nasti, asti. Because ja is in chavarga. Cha, cha, ja, ja, nya. Ataha jakarasya. So, the pratyaya begins with ja. And it is in chavarga. Ataha jakarasya itsamya asti. It is a technical term. There is a question, what does it really mean when you say that something has itsamya or not? It is a technical term given by Panini. So, he defined which letter has this term, which the it term, and which doesn't have. So he defined that. There are some rules. So kasyit samnya bhavati, kasyit samnya na bhavati. So I am explaining those rules. So some in pratyayas, for example, the pratyaya ending with a consonant. The consonant has its samnya. It is just a technical term. Yes, and Ravi Prakash ji asked, where do we use this knowledge? Yes, later on we will know. Therefore, I said in the beginning itself, don't think about usage. So later on we will get. So when we study Sandhi and Tinganta, Subanta, then we will know. Tasya Prayojan Agre Jnayate. So now, just I am explaining these terms. Later on we will use these terms. Yes, there are many rules which depend on itsamnya. So it is very important samnya in Vyakarana, it. So it is very important to know itsamnya. Yeah. And shaspratyaya. Shaspratyaya kasya asti itsamnya? Yes, Shakti Priyaji, yes, Indiraji. Janaki Rajaramji, yes. Sha, because the pratyaya syarambha shakarena bhavati. And it is a supratyaya. Ataha shakara sechanya asti, samyak. Ta iti kastana supratyaya. Atraka sechanya asti. No. Yeah, ta, yes, Indiraji, yes, Sishiji. See, ta is in tavarga. Therefore, ta has itsamya. Yes, samyak. Takarasya itsamnya asti. Nge iti kasyana pratyayaha. Atra kasya itsamnya asti. Yes. Srinivasji, yes. Nge. Atra nasti, someone wrote. Yeah, it is there because nga is in kavarga, kakha gakha nga. So kavarga asti ngakaraha. Therefore, nga has itsamnya. Only a remains. A iti avasishyate. In ta, a avasishyate. In nge, a avasishyate. Ngakara has itsamnya. Because nge is nga plus a is nge. So nga has itsamnya and a iti avasishyam. Ngasi. Atra, same. Because ng atrapi ng samek. Yeah. Ngas, same. Ngi, same. These are supratyas. Yeah. And kta pratyaya. In kta pratyaya, yes. K, yeah. Girijaji, Shashiji, Barasupramaniji, yes. Kakara se samnyasti. Same with ktavatu also. And shatru pratyaya. Yes, Jaganji, yeah, sha, yes. Yeah, Venkatji Shaktiji, yes. Shakara Set Samyasti. Same with Shanach also. Shakara Set Samya. Same with Shayach also. Ksa iti kasana pratyaya. Atraka Set Samya. Yes, Venkatji, yeah, Vasubramanianji, Jayantiji, yes. Kakara Set Samyasti. Chang iti kasana pratyaya. Atra, yes, Shakara Set Samyasti, yeah. Bahubhilkitam. So, chakara has its samnya. Taap iti kasya pratyaya. Atra, yes, Shakti ji, yes, Shishi ji, yeah, Bhavani ji, yeah. Takara has its samnya asti. Daap iti kasya pratyaya. Atra, yes, Venkat ji, Jagan ji, yes. Dakara, do has its samnya. Chaap iti kasya pratyaya. Here, yes, Shakti ji, yes, Jagan, yeah, samek. Chakara has its samnya. Nish iti kasyana pratyaya. Yes, Shakti ji, yeah. Girija ji, yes. Narayan ji, yeah. Yeah, so Kumar ji asked a question. In Shatru, the Rukara in end also is it. Yeah, in Shatru, Rukara has its samnya. That is with the previous rule. I said some vowels has its samnya. So, because of that, Shatru has its samnya. Ngin, atra? Yeah, nakarasya, same as ngish. ल्युट् प्रत्ययः अत्र यस् लकार बालसुब्रह्मण्यंजी यस् इन्दिराजी वेङ्कट्जी यस् लु हेस् इत् संज्ञा. सो एवं प्रत्ययस्य आदौ विद्यमानानां चवर्ग टवर्ग कवर्ग शकार लकाराणाम् इत्संज्ञा अस्ति. सो इन् सम् एक्सेप्शन् दट् इस् इन् तद्धितप्रत्यय तद्धितप्रत्यये अपवादः अपि अस्ति. सो देट् ऐ मेन्शन्ड् प्रीवियस्लि. अस्तु प्रायः समयः अभवत्. सो इत्संज्ञाविषये ज्ञातं. सो काश्चन संज्ञाः मया उक्तः, अङ्गं नाम किम्, आदेशः, आगमः, इत् एतासां संज्ञानां विषये उक्तम्. दिस् ओन्लि दिस् आर् टेक्निकल् टर्म्स् यूस्ड् बै पाणिनि. सो लेटर् आन् इन् अदर् सूत्रास् सो दीस् टेक्निकल् टर्म्स् आर् यूस्ड्. सो नोयिङ्ग् दीस् टर्म्स् इस् वेरि इम्पार्टेण्ट् सो बिफोर् अण्डर्स्टाण्डिङ्ग् अष्टाध्यायी. सो देन् वि इफ् यु नो दीस् टर्म्स् देन् वेन् एवर् हि सेस् इट् देन् वि विल् गेट् सो दिस् मीन्स् लैक् दिस् लैक् वट् इस् द नेम् आफ् संस्कृत कीबोर्ड् यु मेन्शन्ड् अर्लियर् प्रमुख. इट् इस् कीबोर्ड् प्रमुख पि आर् ए प्रमुख एम् यु के हेच् ए प्रमुख के हेच् इति अस्ति. सो दट् इस् अ फ्री साफ्ट्वेर् सो यु केन् यूस् सो यु केन् यूस् फार् एनी लाङ्ग्वेज् नाट् ओन्लि फार् संस्कृत फार् एनी लाङ्ग्वेज् यु केन् यूस्. यस् अस्तु यदि प्रश्नाः सन्ति यु केन् एड् इन् गूगल् ग्रूप् आल्सो आर् इफ् यु रैट् हियर् ऐ विल् आन्सर् लेटर् आन्. वाट् इस् आदौ बिगिनिङ्ग् यस् आदौ इत्यस्य आरम्भः इत्यर्थः. हौ टु रैट् दीर्घ ऋ यु ऋ सो इफ् यु यूस् प्रमुख देन् देर् इस् हेल्प् सो दे हेव् गिवन् सो हौ टु टैप् फार् ऋकार लकार एव्रिथिङ्ग् दे हेव् गिवन् कीबोर्ड् लेऔट् सो यु केन् यूस् देट्. I feel if you split these pratyayas, it will be easy to understand the its letters. Splitting means, can you explain, Girijaji? Vaktum. Can you say using mic also? Mic upayoja vaktum shaknati. Yes, Girijaji. Oh, for example, just do, so, yeah, if you, if I split like that, okay, yeah. But you will get pratyas like this only. In books, you will find pratyas like just, as, ta, nge. Therefore, I wrote as it is, so that it helps you while studying pratyas. Yeah. And agrima paatha nasti. Next Wednesday, there is no class. And so the next class will be in the month of April. So March masasya, the next class is not there. Agrimasa paatha nasti. So next class will be in the month of April. Samni ikaranta siringa shabdo va. Samni, if you write hraswa, then it is napumsakalinga. If you write dirgha, samni, then it is pullinga. So here I use hraswa ikara. Therefore it is ikaranta napumsakalinga shabda. Will you share the list of pratyayas? Some pratyayas I mentioned in the previous slides. For supratyaya, I gave a list of supratyayas and thing pratyayas. But krit pratyayas are more than 100. There are 123 krit pratyayas. So I am not going to teach all those pratyayas also. So only I will teach those famous. So those I listed out those pratyayas in the previous slide. अवसानम् अस्ति वा? रामः गच्छति. या देर् इस् अवसान, रामः गच्छति आफ्टर् ति अवसान अस्ति. किन्तु उपयोगः अस्ति वा, वेदर् देर् इस् यूसेज् आफ् देट् आर् नाट् इस् डिफ्रेण्ट्, बट् अवसानम् अस्ति, देर् इस् अवसान. अट्लीस्ट् द मीनिङ्ग् आफ् आल् प्रत्ययस्. या मीनिङ्ग् आफ् आल् प्रत्ययस् दट् ऐ विल् टीच् लेटर् आन्. सो वेन् ऐ टीच् कथं कृत् प्रत्ययस् देन् ऐ विल् एक्स्प्लेन् द मीनिङ्ग् आफ् दोस् प्रत्ययस्. So we'll get to those later on. The equivalent samajni. Samajni, what can be the English translation? Samnya is term, technical term, we can call Samnya as technical term, and it can be referent. I don't know, it can be the proper translation. Samjni, I think referent of technical term is Samjni. Yeah, what is the difference between Hal and Vyanjanani? Yeah, this is the same synonym, but I didn't explain Hal till now, that I will explain later on. But both are same, Hal and Vyanjanani. Yes, referent is correct. Yeah, okay. Then we can use that term. Astu, tarhi. Any other question? Yes, yes. In Sita Gacchati, there is avasanam after A. Is there avasanam after T? Avasanam is there. But whether there is use of that avasana in Sanskrit grammar or not, that is different. But there is avasana. So, we are not using that avasana because it is not used by Panini. Whether he used that or not, that is a different thing. But avasanam is there. If you say Gacchati and no letters, then there is avasana. Prana alpa prana. Mahaprana alpa prana. To all. Sarvesham. Mahaprana alpa prana applies to all vyanjanani. Sarvesham nasti. Only those vargiya vyanjana. Ka kha, ga kha, cha cha, ja cha, tatreva. Ta tha, and da tha. Tatreva alpa prana mahaprana hai thi. Actually, this sha, ete sarve mahaprana hai eva. These are considered as mahaprana only. Sha, sha, ete sa, ete sarve mahaprana hai eva. Yes, pa, pha, ba, pha, tatrapi mahaprana, satyam. Astu, tarihi, agrima patha nasti. So next class will be in the month of April. Iti prashna santi Google group madhye yojayantu. Astu, dhanyavadaha, amangalam karomi. Vakyakaram vararuchim, bhashyakaram patanjalim, paninim, sutrakarancha, pranatosmi, munitrayam.